एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य सत्तायां सहभागिनो नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनश्च मध्ये सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमाणां मन्त्रिपरिषदः विस्तारस्य च सम्बन्धे ह्यो विमृष्टमस्ति। बाल्वाटारवर्तिनी प्रधानमन्त्रिणः सर्वकारीय निवासे सम्पन्ने एतस्मिन् मेलने सर्वकारस्य न्यूनतम संयुक्त कार्यक्रमाणां मन्त्रिपरिषद विस्तारस्य विश्वासस्य मतस्य च विषयेषु विमृष्टमिति प्रधानमन्त्रिणः प्रचण्डस्य संचार संयोजकः सूर्य किरण शर्मा अज्ञापयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते विविधतायुक्तः समाजः नेपालस्य विशिष्ट परिचय स्थिति हेतोः एतस्य संरक्षणं विकासश्च राज्यस्य प्रमुखदायित्वं वर्तते। तमुल ल्होसार पर्वणः अवसरे गतदिने काष्ठमण्डपे आयोजिते समारोहे प्रधानमन्त्री प्रचण्डः अवोचत् विविधतायाम् एकतायुक्तः समाजः नेपालस्य राष्ट्रिय परिचयो वर्तते। प्रधानमन्त्री प्रचण्डः परापूर्वकालतो निवसन्तीनां विभिन्नानां जातीनां धर्मसंस्कृत्योश्च व्यक्तिनां मध्ये एकतायं संरक्षितायं सत्यमेव नेपालस्य राष्ट्रिय परिचयः रक्षितुं शक्यते इति प्रत्यपादयत्। प्रधानमन्त्री प्रचण्डः तं समुदाये प्रचलितं पञ्चाङ्गं नेपालस्य प्राचीन पञ्चाङ्गानां मध्ये अन्यतमम् अस्ति इति चर्चयन् अकथयत् एतस्य संरक्षणाय आवश्यक प्रबन्धनं कर्तुं सर्वकारः तत्परो वर्तते। तमुल ल्होसार पर्वणः सम्मानाय सानुभूत्यै च सर्वकारेण प्रदत्तस्य आर्थिक सहयोगस्य अवरोधनं प्रति स्वस्य ध्यानम् आकृष्टमस्ति इति भाषमाणः प्रधानमन्त्री प्रचण्ड आत्मना सर्वकारीय सहयोग विगतस्य तुलनायां वर्धिष्यते इति उदघोषयत्। प्रधानमन्त्रिणं पुष्पकमल दाहाल प्रचण्डं चीनदेशीय प्रधानमन्त्री ली खच्याङ नेपाल सर्वकारं नेपाली जनतां च प्रति स्वस्य पूर्ण सहयोग भवतीति कथयति। प्रधानमन्त्रीले प्रचण्डाय वर्धापन सन्देशं प्रेषयन् चीनदेशीय प्रधानमन्त्री खच्याङ वर्तमान सर्वकारः पूर्णरूपेण सफलो भविष्यति इति अपेक्षते। प्रधानमन्त्रिणा दाहालेन सह शिष्टाचार मेलनाय ह्य प्राप्तः चीनदेशीय दूतावासस्य कार्यवाहक राजदूत वाङ सिंह चीनदेशीय प्रधानमन्त्रिणः सन्देशं प्रायच्छत्। चीनदेशस्य प्रधानमन्त्रिणा सन्देशे नेपालस्य आर्थिक विकासाय चीनदेशः सदैव सहयोगं विदधातीति उल्लिखितं वर्तते। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह नेपालस्य कृते भारतीय राजदूतः नवीन श्रीवास्तवः ह्यः शिष्टाचार मेलनम् अकरोत्। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् मेलने एतयोर्मध्ये नेपाल भारतयोः सम्बन्धस्य अतिरिक्त सुदृढीकरणस्य विषये विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितमस्ति। तदवसरे प्रधानमन्त्रिणः प्रचण्डस्य समक्षं राजदूतेन श्रीवास्तवेन भारतीय प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रेषितं वर्धापनपत्रं हस्तान्तरितम् आसीत्। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य श्रीलंकादेशस्य राष्ट्रपतेः रणिल विक्रमसिंघे इत्यस्य च मध्ये ह्यः दूरभाषवार्ता सम्पन्ना अस्ति। प्रधानमन्त्रिणः सचिवालयस्य अनुसारेण श्रीलंकायाः राष्ट्रपतिना विक्रमसिंघे इत्यनेन प्रधानमन्त्रिपदे निर्वाचितः इत्यालक्ष्य प्रचण्डाय वर्धापनं प्रदत्तम् आसीत्। एतयोर्मध्ये देशद्वयस्य मध्ये दीर्घकालस्थितस्य मैत्री सम्बन्धस्य अतिरिक्त सुदृढीकरणस्य विषये विमृष्टम् आसीत्। एवमेव राष्ट्रपतिः विक्रमसिंघे प्रधानमन्त्रिणः प्रचण्डस्य कार्यकाले देशद्वयस्य सम्बन्धः अतिरिक्त विस्तारितो भविष्यति इति विश्वासं व्यक्तवान् आसीत्। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन चलभाषोपकरण व्यवस्थापन प्रणालीं तत्कालं न क्रियान्वेतुं निर्दिष्टं वर्तते। नेपाल दूरसञ्चार प्राधिकरणेन ह्यस्तन दिवसात् क्रियान्वीयते इत्युक्तं प्रणालीम् इमां तत्कालं न क्रियान्वेतुं निर्दिष्टमिति प्रधानमन्त्रिणः संचार संयोजकः सूर्य किरण शर्मा अज्ञापयत्। प्राधिकरणेन प्रणालीम् असौ क्रियान्वीय सीमा प्रवेश शुल्कस्य प्रदानेन विना आनीतानां चलभाषोपकरणानां ह्य पौषस्य 15 दिवसस्य अनन्तरं नेपाले न सञ्चलनस्य व्यवस्था विहिता आसीत्। अस्याः प्रणाल्याः क्रियान्वयनानन्तरं विदेशात् प्रत्यावर्तनस्य क्रमे केनचित् जनेन एकाधिकेषु चलभाषोपकरणेषु आनीतेषु सत्सु द्वितीये प्रतिशतम् अष्टादशभिः सीमा प्रवेश बिन्दु शुल्कम् अर्पणीयम् तृतीय चलभाषोपकरणस्य च अधिग्रहणस्य व्यवस्था विहिता आसीत्। प्राधिकरणेन चलभाषोपकरणानाम् अवैधानिक आयातम् विक्रय वितरणम् प्रयोगञ्च निरुत्साहितं कर्तुम् अतिरिक्तं व्यवस्थापयितुम् चोरितानां विलुप्तानां च चलभाषोपकरणानां निष्क्रियकरणं विधातुं च व्यवस्थेयं क्रियान्वयमाना स्थिति ज्ञापितम् आसीत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भारतीय प्रधानमन्त्रिणा नरेन्द्र मोदिनो मातुः हिराबेन मोदिनो निधनं प्रति दुःखं व्यनक्ति। प्रधानमन्त्री दाहाल शोक सन्देशस्य माध्यमेन दुःखस्य एतस्मिन् क्षणे प्रधानमन्त्रिणं मोदिनम् एतदीय परिवारं च प्रति समवेदनां व्यनक्ति। प्रधानमन्त्री दाहाल दिवंगतायाः हिराबेन इत्यस्याः आत्मनः चिरशान्तिं च कामयते। भारतीय प्रधानमन्त्रिणा मोदिनो माता हिराबेन ह्य शतस्य वर्षाणां वयसी दिवंगता आसीत्। सर्वकारेण प्रतिवेशी देशयो कोरोना विषाणो संक्रमणं वर्धमानमस्ति त्यतः अतिरिक्त टीकाकरणस्य आदानस्य प्रक्रिया प्रारब्धा वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन अतिरिक्त टीकाकरणस्य आदानाय औपचारिक रूपेण ग्लोबल एलायन्स संस्थायै पत्राचार अभियुतो वर्तते। स्वास्थ्य सेवा विभागस्य परिवार कल्याण महाशाखायाः टीकाकरण शाखायाः प्रमुखः सागर दाहालः परह्यः पञ्चदशानां लक्षाणां टीकाकरणानाम् आदानाय ग्लोबल एलायन्स संस्थायै पत्रं प्रेषितमिति अज्ञापयत्। प्रतिवेशिनो चीन भारत देशयो बीएफ सप्त नाम्न्याः कोरोना विषाणोः प्रजातेः नूतन प्रकारस्य प्रसरणस्य अनन्तरं मन्त्रालयेन अतिरिक्त टीकाकरणाधानाय अवशिष्टाः सर्वे जनाः अनुरुद्धाः सन्ति। अद्य सप्तचत्वारिंशत् राष्ट्रिय मेला दिवस नेपाली कांग्रेस दलेन एतस्य भाति संगठनैश्च विभिन्नैः कार्यक्रमैः सह समायोज्यमानो वर्तते। प्रथम जननिर्वाचित प्रधानमन्त्री जननायकः विश्वेश्वर प्रसाद कोइराला राष्ट्रियतायाः संकटम् अनुभूय एतस्याः सुरक्षायै राष्ट्रस्य अस्थिरतायाः अराजकतायाः असुरक्षायाश्च संरक्षणाय च राजतन्त्रस्य प्रजातन्त्रवादी शक्तीनां च मध्ये समन्वय संस्थापनस्य उद्देश्येन राष्ट्रिय मेलस्य नीतिं प्रतिपाद्य त्रयस्त्रिंशदुत्तर 2000 वैक्रमाब्दस्य अद्यतन दिवसे भारत निर्वासनात् स्वदेशं प्रत्यागतः आसीत्। एतदीयायाः एव ऐतिहासिक घटनायाः स्मृतिस्वरूपेण राष्ट्रिय मेला दिवसोऽयं समायोज्यमानो वर्तते। नेपाली कांग्रेस प्रथम प्रदेश संसदीय दलस्य नेतारी उद्धव थापा निर्वाचितो वर्तते। ह्यबीते मतदाने नेपाली कांग्रेस दलस्य प्रथम प्रदेशस्य सभापति थापा अष्टादश मतानि अधिगत्य निर्वाचितो वर्तते। एतस्य प्रतिद्वन्दिना केदार कार्किणा नवमतानि प्राप्तानि आसन्। प्रथम प्रदेशे नेपाली कांग्रेस दलस्य 29 सांसदाः वर्तन्ते। नवनिर्वाचिताः सुदूर पश्चिम प्रदेश सभायाः सदस्याः ह्य पदगोपनीयतयो शपथं गृहीतवन्त। धनगढ़ी वर्तिनी प्रदेश सभायाः उपवेश भवने प्रदेश सभायाः ज्येष्ठ सदस्य मान बहादुर रावलः नवनिर्वाचितान् प्रदेश सभायाः सदस्यान् शपथम् अग्राहयत। अत्रान्तरे सुदूर पश्चिम प्रदेश सभायाः प्रथम उपवेशः परश्वः पौषस्य अष्टादश दिवसे दिवा एकवादनाय आहूतम् अस्तीति प्रदेश सभा सचिवालयेन ज्ञापितम् वर्तते। बिना विभागीय मन्त्री ज्वाला कुमारी शाह गदति शिक्षायां विद्यमानायाः अव्यवस्थितेः असमाप्तिम् यावत् गुणस्तरीय शिक्षा न अवाप्यते। बारा जनपदस्य कलियास्थाने ह्यो राम राजा मोहन विक्रम शाह बहुमुखी महाविद्यालयस्य पञ्चदश्यां सभायां मन्त्री शाह अगदत् नागरिकेभ्य गुणस्तरीय शिक्षाया प्रदानाय राष्ट्रस्य शिक्षाक्षेत्रे विद्यमानाः विकृति विसंगतयः समापनीयाः।